यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजे शितुरिष्ट बन्धुः त्वां सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वतामेष गतोऽपि रूक्षैः नादैः समुद्वेजित सर्वलोकः भवद्विलोकावधिगोपवाटीं प्रमर्द्य पापः पुनरापतत्वाम् तार्क्षार्पिताङ्घ्रेस्तव तार्क्ष एषः शिक्षेपवक्षो भुवि नाम पादम् मृगोपदाघातकथान् निशम्य स्वेनापि शक्यम् तदितीव मोहात् प्रवञ्चयन्नस्य खुराञ्चलन्ध्रा आमुञ्च चिक्षेत्तिथ दूरदूरम् सम्मूर्छितोऽपि ह्यतिमूर्छितेन क्रोधोष्मणा खादितुमादृतस्त्वा त्वं वाहदण्डे कृतधीश्च वाहादण्डन्यधास्तस्य मुखे तदानीम् तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् आलम्भमात्रेण पशोऽसुराणा प्रसादके नूत्नैवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्राः त्वां तुष्टुवुः केशव नाम धेयम् कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतो भूः कदापि गोपैः सह काननान्ते निलायन क्रीडनलोलुपन्त्वा मयात्मजः प्राप दुरन्तमायः व्योमाभिदो व्योमचरोपरोधी स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च गुहासु कृत्वापि दधे शिलाभिः त्वया च बुद्ध्वा परिमर्दितोऽभूत् एवं विधैश्चाद्भुतकेलिभेदैः आनन्दमूर्छामतुलां व्रजस्य पदे पदे नूतनयन्न सीमा परात्मरूपिं पवनेशपायाः नारायणा अखिलगुरो भगवन्नमस्ते।